एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। नेकपा एमाले दलेन दलस्य नेतृद्वयं माधव कुमार नेपालः भीम रावलश्च मासषड्काय दलसदस्यात् निलम्बितौ स्तः। नेकपा एमाले दलस्य अध्यक्षेण प्रधानमन्त्रिणा च केपी शर्मा ओलिना नेतृभ्याम् नेपालाय रावलाय च गतदिने पृथक पृथक पत्रम् सम्प्रेष्य दलस्य साधारण सदस्यादेव मासषड्काय निलम्बनम् विहितमिति ज्ञापितमस्ति। पत्रे नेतृद्वयेन दत्तम् स्पष्टीकरणम् सन्तोषजनकम् नास्तीति वितर्क्य सुधाराय अवसरम् प्रदाय मासषड्काय दण्डनम् विहितमिति उल्लिखितम् वर्तते। एवमेव पत्रे नेतृद्वयेन नेपालेन रावलेन च दलस्य हितस्य एकतायाश्च विरोधिनः समूहगताश्च क्रियाकलापाः विधीयमानाः सन्तीति हेतोः इमौ दलसदस्यात् निलम्बितौ इति उल्लिखितमस्ति। नेकपा एमाले दलेन पूर्वे द्युरेव दलस्य नेतृद्वयाय सुरेन्द्र पाण्डे विधेयाय घनश्याम भूषालाय च अतिरिक्तम् स्पष्टीकरणम् स्पृष्टम् वर्तते। दलेन इतः पूर्वम् स्पृष्टस्य स्पष्टीकरणस्य उत्तरस्य प्राप्तेः कारणेन नेतृभ्याम् पाण्डे विधेयाय भूषालाय च अतिरिक्तम् स्पष्टीकरणम् स्पृष्टम् अस्तीति एमाले दलम् ज्ञापयति। सर्वोच्च न्यायालयेन बालवाटारवर्तिन्या ललिता निवासस्य भूमेः प्रकरणे पूर्व प्रधानमन्त्रीद्वयस्य माधव कुमार नेपालस्य डा बाबुराम भट्टराई इत्यस्य च नेतृत्वस्य मन्त्रिपरिषदः निर्णयमानेतुम् आदिष्टम् वर्तते। न्यायाधीशयो अनिल कुमार सिम्हा हरिप्रसाद फुयालयोः संयुक्त न्यायपीठेन एतस्याः भूमेः व्यक्तिनाम् नामसु पञ्जीकरणत्वेन परिषदा विहितम् निर्णयमानेतुम् इह आदिष्टम् वर्तते। आदेशे मन्त्रिपरिषदा 67-2000 वैक्रमाब्दस्य चैत्रमासस्य 29 दिवसे 67-2000 वैक्रमाब्दस्य वैशाखमासस्य 31 दिवसे श्रावणमासस्य 28 दिवसे च 69-2000 वैक्रमाब्दस्य आश्विनमासस्य 18 दिवसे च विहितान् निर्णयान् आनीय महान्यायाधिवक्तुः कार्यालयस्य माध्यमेन सर्वोच्च न्यायालये प्रस्तुतमुक्तम् वर्तते। अधिकार दुरुपयोगानुसन्धानायोगेन एतस्मिन् प्रकरणे गत विक्रमाब्दस्य माघमासस्य 28 दिवसे पूर्वमन्त्रिभ्याम् विजयकुमार गच्छदार चन्द्रदेव जोशीभ्याम् सह 75 जनानाम् विरूद्धे विशेष न्यायालये भ्रष्टाचारस्य न्यायिक प्रकरणम् पञ्जीकारितम् आसीत्। परम् पूर्व प्रधानमन्त्रीद्वयाय नेपालाय डा भट्टराई इत्यस्मै च मन्त्रिपरिषदः सामूहिक निर्णयस्य कारणम् उल्लिख्य उन्मुक्तिः प्रदत्ता आसीत्। पूर्व प्रधानमन्त्रीद्वयाय नेपालाय डा भट्टराई इत्यस्मै च उन्मुक्तिः दातुम् न शक्यते इत्युल्लिख्य वरिष्ठाधिवक्त्रा बालकृष्ण न्यौपाने विधेयेन गत विक्रमाब्दस्य माघमासस्य 28 दिवसे सर्वोच्च न्यायालये आदेशाभियाचन पत्रम् पञ्जीकारितम् आसीत्। प्रधानमन्त्रिणे केपी शर्मा ओलिने नेपालस्य कृते चीनदेशीय राजदूत हो यान्छी चीन सर्वकारेण अनुदाने प्रदत्तम् कोरोना विरोधी टीकाकरणम् हस्तान्तरितवती। बालवाटार वर्तिनी प्रधानमन्त्री निवासे ह्य आयोजिते कार्यक्रमे नेपालस्य कृते चीनदेशीय राजदूत यान्छी प्रधानमन्त्रिणे ओलिने 8 लक्षणम् परिमाणस्य कोरोना विरोधिनी टीकाकरणानि हस्तान्तरितवती। हस्तान्तरण समारोहम् सम्बोधयन् प्रधानमन्त्री ओली अगदत् जनतायाः जीवनम् प्रथमम् तदनन्तरम् अर्थतन्त्रम् इति नीतिम् आत्मसात्कृत्य नेपाल सर्वकारः अग्रे वर्धितो वर्तते। प्रधानमन्त्री ओली चीन भारताभ्याम् प्राप्तानि टीकाकरणानि प्रभावकारिणी वर्तन्ते इत्यतः कस्मिन्नपि द्वैविध्येन स्थित्वा टीकाकरणम् ग्रहीतुम् सर्वान् अन्वरुणत्। समारोहम् सम्बोधयन्ती राजदूतः यान्छी नेपालस्य प्रतिविपदम् चीनदेशेन सहयोगः विद्यमानोऽस्तीति भाषमाणा। कोरोना संक्रमणस्य प्रतिरोधेऽपि नेपालाय सहयोग प्रदानम् समालक्ष्य चीन सर्वकारस्य पक्षत प्रसन्नताम् व्यक्तवती। सर्वकारेण थारू कल्याणकारी सभया सह वार्ताम् विधातुम् गृहमन्त्रिणो रामबहादुर थापा विदस्य संयोजकत्वे त्रिसदस्यीय वार्ता समूह संगठितो वर्तते। सिंहप्रासादे ह्य आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पार्वत गुरूङ थरवट थारूवान संयुक्त संघर्ष समित्या केन्द्रीयान्दोलन परिचालन समित्या च उपस्थापिताः 29 सूत्रीयाः याचनाः सम्बोधयितुम् वार्ता समूह संगठितो स्थिति अज्ञापयत्। सदस्ययोः प्रधानमन्त्रिणः परराष्ट्र परामर्शदाता डा राजन भट्टराई पूर्व सांसदः भगवती चौधरी च स्तः। सर्वकारः सर्वविधान् हिंसात्मक गतिविधिन् समाप्य नेपालस्य समृद्धस्य शान्तिपूर्णस्य च देश निर्माणाभियाने वर्तते इति मन्त्री गुरूङ अबोधयत्। शिक्षा विज्ञान प्रविधि मन्त्रालयेन आराष्टम शिक्षण संस्था अद्यतो दिन चतुष्टयाय पिधातुम निर्णीतम वर्तते। मन्त्रिणा कृष्ण गोपाल श्रेष्ठस्य अध्यक्षतायां गतदिने मन्त्रालय उपविष्टेन आकस्मिकोपवेशेन देशस्य सम्पूर्णः शिक्षण संस्थाः अद्यतः शुक्रवासरं यावत् पिधातुम निर्णीतम वर्तते। उपवेशे मन्त्री श्रेष्ठः वायुमण्डले सृष्टायाः जलवायु प्रणाल्याः प्रतिकूलतायाः कारणात् लक्षशो विद्यार्थिनां स्वास्थ्य समस्योद्भावनस्य सम्भावनाम् आकलय्य शिक्षण संस्था पितापिताः सन्तीति अवोचत। उपवेशात् प्राक् शिक्षा मन्त्रिणा श्रेष्ठेन प्रधानमन्त्रिणा केपी शर्मा ओलिना सह वातावरणेन श्रेष्ठस्य प्रतिकूल प्रभावस्य शिक्षण संस्थानां पिधानस्य च विषययोः परामर्शनं विहितम् आसीत्। ह्याराष्ट्रम् एकचत्वारिंशदधिकैकशते जनेषु कोरोना संक्रमणं पुष्टीभूतं वर्तते। एवमेव ह्य अतिरिक्ताः 82 जनाः कोरोना संक्रमणात् मुक्ताः सन्ति। ह्यस्तनावधि आराष्ट्रम् 1,41,73 कोरोना विषाणो सक्रिय संक्रान्ताः जनाः सन्तीति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देवाविदेन संविधान सभा सदस्यस्य लक्ष्मीदेवी भण्डारिणः निधनं प्रति दुःखं व्यक्तं वर्तते। सभापतिना देवाविदेन ह्य शोकविज्ञप्तिं प्रकाशयता भण्डारिणा नेपालस्य लोकतान्त्रिकान्दोलने उडाम भूमिकां स्मरता तस्यां भावपूर्ण श्रद्धाञ्जलिः शोकसन्तप्त परिवारजनेषु समवेदना च प्रकटिता वर्तते। भण्डारी ह्य ललितपुरस्य मेडिसिटी चिकित्सालये उपचारस्य क्रमे 1 सप्ततितमे वयसि दिवंगता आसीत। ललितपुर महानगरपालिकाया चतुर्दश वडा क्षेत्रस्थिते नखुस्थाने कृषकै पालितेषु पक्षिषु बर्ड फ्लू पक्षिज संक्रामक रोग दृष्टोऽस्ति। पशु सेवा विभागस्य सूचनाधिकारी डा चन्द्र डकाला नखुस्थाने कृषकै पालितानां हंसा कुकुट बटकानां निदर्शनानां त्रिपुरेश्वरवर्तिन्यां केन्द्रीय पशुपक्षी रोग प्रयोगशालायां पीसीआर विधिना परीक्षणं विहितं सत्। गत शुक्रवासरे बर्ड फ्लू संक्रामक रोग दृष्ट इति अज्ञापयत्। पर्यटन विभागेन वितीर्य मानस्य पर्वतीय पथ प्रदर्शकानुमतिपत्रस्य वितरण कार्यं स्थगित कृतं वर्तते। इति समाचारः।